यामि मां पुष्पितां वाचं प्रवदन्त्यविपश्चितः वेदवादरता पार्थ नान्यदस्तीति वादिनः कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदा क्रियाविशेषबहुलां भोगेश्वर्यगतिं प्रति